एसा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः चन्द्रकान्त पौडेलः। प्रतिनिधिसभायाः गतदिवसीयो उपवेशे आगामिनः आर्थिक वर्षस्य विनियोजितम् आयव्ययकम् आश्रित्य मन्त्रालयगतम् विमर्शनम् प्रारब्धम्। विधि न्याय संसदीय विषय मन्त्रालय, युव क्रीड़ा मन्त्रालय, भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्रालय, महिला बाल बालिका ज्येष्ठ नागरिका मन्त्रालयानाम् अन्तर्गते विमर्शने सांसदाः आयव्ययकम् केन्द्रीकरणस्य वैपरीत्येन विकेन्द्रितम् विधातव्यम्, नागरिकता विधेयकम् तत्कालम् पारितीकर्तव्यम्, विपन्नेभ्यः परिचय प्रदानस्य अवधिः निर्धारणीयः, भूश्रमिकाणाम् समस्याः सम्बोधनीयाः, क्रीडायै पर्याप्तम् आयव्ययकम् विनियोजनीयम् चेति अवोचन्। सांसदाः समाजस्य आवश्यकतायाः अनुसारेण विधिः निर्मेयः, निर्मितो विधिः नागरिकेभ्यो ज्ञापनीयः, नगरीय विकास मन्त्रालयेन अवकरस्य व्यवस्थापनम् विधातव्यम्, पर्यटनम् प्रवर्धनीयम्, प्रतिग्रामपालिकम् क्रीडा प्रांगणम् निर्मातव्यम् चेति परामर्शन्। विमर्शने सांसदः द्वन्द्वस्य समये पीडिताभ्यः व्यक्तिभ्यो यथासमयम् क्षतिपूर्ति दातुम्, मातुर्नाम्ना नागरिकता प्रदानाय विलम्बनम् न कर्तुम्, अव्यवस्थित आवासनम् सम्बोधयितुम्, प्रतिपालिकम् क्रिकेट पादक कन्दुक क्रीडयोः प्रवर्धनाय वित्तम् आवंटयितुम् च परामृश्य महिला मन्त्रालये वित्तस्य न्यूनीभवनम् प्रति ध्यानम् आकर्षयन्। उपवेशे सांसदाः प्रेम सुवालः, दुर्गा पौडेलः, शिवमाया तुम्बाहाम्थे, जगत बहादुर सुनारः, घनश्याम खतिवड़ा, जुली कुमारी महतो च एतत् विक्रम वर्षीयस्य विनियोजन विधेयकस्य व्यय न्यूनीकरणस्य प्रस्तावम् प्राप्तवन्। तत्पूर्वं प्रतिनिधिसभायाः उपवेशे एतत् विक्रमाब्दीयं यौन हिंसा विरोधी कतिचिदधिनियम संशोधन विधेयकम् आश्रित्य सैद्धान्तिक विमर्शनम् विहितम् आसीत्। सांसदाः यौनजन्य हिंसायाः अपराधिनां कठोरेण दण्डनत्वेन विधिं निर्मातुं बलं प्रादुः। विमर्शने उत्थापितान् प्रश्नान् उत्तरन् विधि न्याय संसदीय विषय मन्त्री गोविन्द प्रसाद शर्मा कोइराला यौनजन्य हिंसायाः घटनानाम् अपराधिनां कठोरेण दण्डनत्वेन विधिं निर्मातुं सर्वकारः सक्रियो भवति इति अवदत्। उपवेशे एतत् विक्रमाब्दीयम् उद्दण्डनापराधोद्दण्डन कार्यविधि सम्बद्ध कतिचिदधिनियम संशोधन विधेयकम् आदृत्य सामान्यं विमर्शनं विहितम् आसीत्। सभामुख अग्निप्रसाद सापकोटा विनियोजन विधेयकस्य अन्तर्गतं विभिन्न मन्त्रालयानां समाविष्ट कार्यक्रमाः पुस्तिकाः तत्कालं प्रदातुं सर्वकारस्य ध्यानम् आकर्षयति। प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदैः मन्त्रालयगत कार्यक्रमाणां पुस्तिकाः न प्राप्ताः इति निगद्य सभामुखस्य ध्यानम् आकर्षितम् आसीत्। सांसदैः भूयो भूयो विषयेऽस्मिन् अभिरुचिं प्रकटय्य प्रश्नस्य उत्थापनम् अनु सभामुखेन सम्बद्ध मन्त्रालयाः सर्वकारस्य तत्कालं समाविष्ट कार्यक्रमाः पुस्तिकाः प्रदातुं निर्दिष्टाः सन्ति। प्रतिनिधिसभायाः अपरोपवेशः अद्य पूर्वाह्नस्य सार्धैकदशवादने वस्ता। निर्वाचनायोगेन आगामिनः आषाढमासस्य प्रथमदिवसात् स्थगितीकृतं मतदातृ नामावली संकलनं प्रारब्धुं निर्णीतं वर्तते। स्थानीयस्तराणां निर्वाचनस्य दिनांकस्य निर्धारणानन्तरं गतवैक्रमाब्दस्य माघमासस्य पञ्चविंशात् दिवसात् स्थगितीकृतं मतदातृ नामावली संकलनं प्रतिनिधिसभायाः प्रदेशसभायाश्च निर्वाचनम् आलक्ष्य मतदातृ नामावल्याः संकलनं पुनः प्रारब्धुं निर्णीतमिति आयोगस्य प्रवक्ता शालिग्राम शर्मा पौडेलः अज्ञापयत्। गतवैक्रमाब्दस्य माघमासात् अस्यैव ज्येष्ठमासस्य अन्तं यावत् लब्ध नागरिकताः जनाः योग्यता भूत्वापि येषां नामानि मतदातृ नामावल्यां न सन्ति तेऽपि प्रदेश निर्वाचन कार्यालयं, जनपद प्रशासन कार्यालयं, क्षेत्रीय प्रशासन कार्यालयं च गत्वा स्वस्व नामानि पञ्जीकर्तुं शक्नुवन्ति इति आयोगस्य प्रवक्ता पौडेलः अज्ञापयत्। अस्य कार्यक्रमस्य अन्तर्गतं नामानि पञ्जीकर्तुं, विवरणे त्रुटौ सत्यां संशोधयितुं, मतदातृ नामावल्याः नामानि अपाकर्तुं, आवास संकेतस्थानं परिवर्तयितुं, मतदानस्थलं परिवर्तयितुं च निवेदनं दातुं शक्यते इति निर्वाचनायोगेन ज्ञापितं वर्तते। आगामिनि निर्वाचने स्वनामानि पञ्जीकृत्य प्रदेशसंघयोः निर्वाचने भागं ग्रहीतुं निर्वाचनायोगेन सर्वे अनुरुद्धाः सन्ति। राष्ट्रपतिना विद्यादेवी भण्डारिणा संगीत नाट्य क्षेत्रे प्रापित विशेष योगदानवन्तः विभिन्नाः सर्जकाः गतविक्रम वर्षीय नेपाल संगीत नाट्य राष्ट्रिय पुरस्कारेण सम्मानिताः सन्ति। शीतल निवासवर्धिनी राष्ट्रपति कार्यालये ह्यायोजिते विशेष समारोहे राष्ट्रपति भण्डारी संगीत नाट्य क्षेत्रे प्रापित विशेष योगदानवन्तः सर्जकान् प्रतिजनम् एकलक्षेण रूप्यकैः सताम्रपत्रञ्च सममानयत्। सम्मानितेषु रंगमञ्च विधायां ऋद्धिचरण श्रेष्ठ, शास्त्रीय संगीत विधायां मोहन प्रसाद जोशी, नृत्य विधायां वीणा राज भण्डारी, नाट्य विधायां मन बहादुर मुखिया, संगीत विधायां मोहन कृष्ण कार्की ढली, लोक संगीत विधायां अमर विरही गुरूङ च वर्तन्ते। तदवसरे राष्ट्रपति भण्डारी अगदत् संगीत कलायाः नाट्य क्षेत्रस्य च विकासेन उन्नत समाजस्य समृद्ध समाजस्य च निर्माणे महत्वपूर्ण भूमिका निर्व्यूहमाना वर्तते। राष्ट्रपति भण्डारी आवासतः संस्कृते सभ्यतायाः रक्षणाय कला साहित्यस्य संगीतस्य संरक्षणं संवर्धनं च अत्यावश्यके स्तः। सभामुखस्य अग्निप्रसाद सापकोटा विदेश नेपाल भ्रमणे रतस्य डेनमार्क देशीय प्रतिनिधिमण्डलस्य च मध्ये शिष्टाचार मेलनम् अभवत्। वानेश्वरवर्तिनी संसद भवने ह्यो विहिते मिलने सभामुख सापकोटा अवदत् नेपाल डेनमार्क देशयोः सम्बन्धः सुमधुरः वर्तते। शिक्षोर्ज सुशासन विकेन्द्रीकरण क्षेत्रेषु डेनमार्क देशेन विहिताय सहयोगाय सभामुख सापकोटा धन्यवादम् व्याहरत्। जनस्तरे एव द्वयोर्देशयोः सम्बन्ध विस्ताराय उभावपि पक्षम् बलम् अदाताम्। सर्वकारेण नेपाल वायुसेवा निगमस्य महाप्रबन्धकः डिमप्रसाद पौडेलः यः निलम्बितो वर्तते। मन्त्रिपरिषदः यस्तनोपवेशेन पौडेलः निलम्बितोऽस्तीति संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयेन ज्ञापितं वर्तते। पौडेलाय एतत्पूर्व मन्त्रालयेन स्पष्टीकरणं स्पष्टम् आसीत्। निगमस्य हितविपरीततया कार्यं विहितम् इत्यारोप्य मन्त्रालयेन महाप्रबन्धकः पौडेलः मन्त्रालये आनीतः आसीत्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्रिणा प्रेम बहादुर आले इत्यनेन पौडेलेन निगमस्य हितविपरीततया कार्यं विहितम् इति निगद्य निलम्बनाय मन्त्रिपरिषदि प्रस्तावः नीतः आसीत्। केपी शर्मा ओलिनः नेतृत्वस्य तात्कालिकेन सर्वकारेण चतुर्णां वर्षाणां कृते निगमस्य महाप्रबन्धकपदे पौडेलः नियुक्तः आसीत्। क्यानाडा देशे खाद्य विज्ञस्य औषध विज्ञस्य च रूपेण कार्यरतेन नारायण घिमिरे विधेन लिखितं नेपाली रैथाने जड़ीबुटी नामकं पुस्तकं ह्यो लोकार्पितं वर्तते। ह्यः काष्ठमण्डपे आयोजिते विमोचन कार्यक्रमे नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा पुस्तकमिदं व्यमुञ्चत्। पुस्तके नेपालस्य आयुर्वेदिक तत्त्वयुतानां मूलौषधानां विषये व्याख्या विहिता वर्तते। काष्ठमण्डपस्य शंखमूलस्थितात् जगद्गुरु आदर्श संस्कृत गुरुकुलात् दलिताः इति उक्त्वा चत्वारो विद्यार्थिनो निष्कासिताः सन्ति। जातीय भेदभावोन्मूलन दिवसस्यावसरे वर्दिया जनपदस्य दलित समुदायस्य बालकाः समीर सुनारः, भुवनेश्वर सुनारः, भीम सुनारः, विराज सुनारश्च शंखमूलवर्तिनी गुरूकुले पठनाय गताः आसन्। एकरात्रौ गुरूकुले निवसनानन्तरम् अपरे दिवसे दलिताः इति ज्ञात्वा वयम् अपमानिताः निष्कासिताश्च इति छात्राणाम् अभिभावकाः जयन्ती सुनारः, कमला सुनारः, नरेन्द्र सुनारश्च अज्ञापयन्। अपमानितेषु छात्रेषु एकछात्रः अनाथो वर्तते। नेपालस्य प्रायः गुरुकुलेषु जातीय विभेदो उच्चतम रूपेण वर्तते। ललितपुरस्य पाटनवर्तिनः मानस चिकित्सालयस्य स्तरोन्नतिः विधीयते। सम्प्रति पञ्चाशत्शय्यायुतं चिकित्सालयं 50-अधिकशतशय्यायुतं निर्मातुं पूर्वकार्यं विधीयमानमस्तीति चिकित्सालयस्य निदेशकः डॉ अनन्तराज अधिकारी अज्ञापयत्। रूस देशस्य प्रत्यादेशस्य वैपरीत्येन बेलायत देशेन युक्रेन देशाय दीर्घदूर्या क्षेप्यास्त्रं प्रदीयते। बेलायत देशस्य रक्षामन्त्री बेन वालेस युक्रेन देशस्य रूस देशात् प्रतिरक्षायै सहायता प्रदानस्योद्देश्येन एतस्य आयुधस्य सहयोग विधीयमानोऽस्तीति अकथयत् इति समाचाराः।